ॐ सत्यात् नास्ति परो धर्मः, आचारः परो परमो धर्मः, अहिंसा परमो धर्मः, उपकारः परमो धर्मः, धर्मे सर्वं प्रतिष्ठितं, धर्मसारमिदं जगत्, धर्मे एको हि निश्चलः। ॐ शान्ति शान्ति शान्तिः। गुरुभ्यो नमः।
धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र हलन्तशब्दानां पुल्लिङ्ग पदानां परिचयः। अस्मिन् विषये गतवर्गे वयम् एकां कथां पठितवन्तः। अद्य तस्मिन्नेव विषये तत्र कथां पठित्वा तत्र हलन्तपदानां पुल्लिङ्ग पदानां विभक्तिरूपाणां परिचयः इति तदपि भवति अद्य। मधु महोदय नमस्कारः। नमस्कारः महोदय। अस्तु तर्हि तत्र ईमेल् द्वारा प्रेषितं तत्र करपत्रम् अपि अस्ति। तत्र प्रायशः करपत्रद्वयमस्ति। तत्र एकम् अस्ति तत्र स्वरूप महोदयेन लिखितं करपत्रं यत्र हलन्तपदानां विभक्तिरूपाणि दत्तानि सन्ति। तद् एकं करपत्रम् अस्ति। तत्तु तत्र गृहपाठः ध्वनिमुद्रणं शृणोतु इति यदस्ति तस्य अधोभागे आत्मन्पदस्य विभक्तिरूपाणि जानन्तु इति तत्र तद् लिङ्क् अस्ति। तत्र अन्यत् अस्ति तत् यत् तत्र गतवर्गे यां कथां पठितवन्तः तस्याः कथायाः करपत्रमपि एकम् अस्ति। अतः तत्र करपत्रद्वयम् अस्ति। किन्तु अत्र कथायाः पूर्वं तत्र प्रायशः तत्र नूतन पुटानि अपि सन्ति इति कृत्वा तत्र एकवारं तत्र नूतनानि पदानि अपि पठित्वा अग्रे गच्छामः। शुभदा भगिनी नमस्कारः।
नमस्कारः महोदय।
नमस्कारः भगिनी। अस्तु तर्हि तत्र नरेश् महोदय तत्र करपत्रे तत्र यत्र चतुर्थपाठः इति अस्ति तत् तद् हा तत्र आरम्भं करोति वा महोदय।
आं महोदय। अधो लिखितानि वाक्यानि पठत। प्रथम एकवचने द्विवचने बहुवचने
सत्यं महोदय।
करपत्रं
तत्र करपत्रं तु तत्र ईमेल् मध्ये अस्ति महोदय। तत्र वि विल् यूस् फैल् इति एकम् अस्ति तत् क्लिक् करोति चेत् प्राप्नोति अद्यतनस्मरणपत्रे।
ऋत्विक् यजति, ऋत्विजौ यजतः, ऋत्विजः यजन्ति।
अग्रे
शक्तिमान् पराक्रमं प्रदर्शयति, शक्तिमन्तौ पराक्रमं प्रदर्शयतः, शक्तिमन्तः पराक्रमं प्रदर्शयन्ति। सुहृद् आगच्छति, सुहृदौ मिलतः, सुहृदः गच्छन्ति।
समीचीनं महोदय, धन्यवादः। अस्तु तर्हि तत्र किम् अस्ति इति अत्र वेदा भगिनी किञ्चित् वदति वा। तत्र ऋत्विक् यजति, ऋत्विजौ यजतः, ऋत्विजः यजन्ति। अत्र
एकनिमिषं महोदय प्रिण्ट् करोमि।
अस्तु अस्तु भगिनि। अतः तत्र अन्य कोऽपि वदति मध्ये। अस्तु
महोदय। आं महोदय, अद्य प्रेषितवान् वा
अथवा ह्यः? तत्र
तत्र नास्ति महोदय, किमर्थं मम पार्श्वे किमर्थं तत्र करपत्रम् इति अस्ति, तदेव
किमपि
ह्यः प्रेषितं ईमेल् मध्ये नास्ति,
ईमेल् मध्ये
अनन्तपुंलिङ्ग
तदेव तदेव अस्ति हलन्तपुल्लिङ्ग इति यदस्ति तदेव भगिनि, हलन्तपुल्लिङ्ग डाट् पी डि एफ् यदस्ति तदेव
अस्तु. कुत्र स्मः?
प्रथमपुटे.
अस्तु
महोदय, किं पठामि?
प्रथमपुटे भगिनि, तत्र ऋत्विक् यजति इति.
ऋत्विक्, एकः ऋत्विक् यजति, ऋत्विजौ यजतः, ऋत्विजः यजन्ति.
तत्र तत्र इदानीं नूतनतया किम् अस्ति तत्र?
ऋत्विक्, ऋत्विक्
इति पदं, नूतनपदं. हा, एतावत् वयम् अजन्तपदानां परिचयं कृतवन्तः, किन्तु विरलतया तत्र भवच्छब्दः जानीमः, भवच्छब्दं जानीमः, किन्तु साधारणतया अजन्तपदानाम् एव व्यवहारः पूर्वम् आसीत्. इदानीं नूतनतया वयं हलन्तपदानामपि तत्र व्यवहारं कर्तुम् इच्छामः, तेषामपि प्रयोगं कर्तुम् इच्छामः, अतः इदानीं तत्र नूतनम् अस्ति ऋत्विक् इति. तत्र ऋषिः यजति अस्ति चेत् तत्र किं भवति? ऋषिः,
ऋषिः इकार, इकार हरिशब्दवत् हरिः, हरौ हरयः, ऋषिः ऋषौ ऋषयः.
हा, समीचीनम्. अतः ऋषिः यजति,
ऋषिः यजति, ऋषौ यजतः, ऋषयः यजन्ति
इति भवति. समीचीनं भगिनि. हा, अतः तत्र इदानीं तत्र ऋषिः इति स्थाने किम् अस्ति? तत्र ऋत्विक्. हा,
ऋत्विक्विजः.
हा, अतः तत्र इदानीं किञ्चित् वदतु तत्र सः ऋत्विक् इति, तत्र केवलं सः, ते, सः तौ, ते उपयुज्य
सः यजति, तौ
यजति, सः ऋत्विक्,
सः ऋत्विक् यजति, सः ऋत्विक् यजति, तौ ऋत्विजौ यजतः, ते ऋत्विजः यजन्ति.
हा, इति समीचीनं भगिनि. अस्तु अस्तु, समीचीनम्. अग्रे
महोदय,
अस्ति वा भगिनि? अस्तु अस्तु अस्तु, तर्हि लक्ष्मी भगिनी वदतु, तदनन्तरं भवती वदतु भगिनी.
अस्तु अस्तु महोदय.
शक्तिमान् वा?
हा, शक्तिमान्. हा,
शक्तिमान्, शक्तिमन्तौ, शक्तिमन्तः. शक्तिमान् पराक्रमं प्रदर्शयति, शक्तिमन्तौ पराक्रमं प्रदर्शयतः, शक्तिमन्तः पराक्रमं प्रदर्शयन्ति.
शक्तिमान्
हरिवर्णः अन्ते अस्ति, हलन्तशब्दः.
हा, हलन्तशब्दः अस्ति, हलन्तशब्दः अस्ति, किन्तु इदानीं तत्र केवलं हलन्तशब्दम् इति ज्ञानम् अस्ति, किन्तु तत्र अन्ते कः वर्णः इति तस्य ज्ञानम् एतावत् नास्ति. केवलं हलन्तपदम् इति तावदेव अस्ति, अग्रे गत्वा पश्यामः तत्र. किन्तु तत्र प्रथमविभक्ति एकवचने किम् अस्ति? शक्तिमान् इति.
शक्तिमान्.
हा, किन्तु शक्तिमान् अपि ऋत्विक् समानं वा अथवा तयोः मध्ये भेदः अस्ति वा?
ऋत्विज्, ऋत्विज् इति प्रातिपदि इति शब्दः
तत्र
जकारान्तः.
हा, तत्र भेदः दृश्यते खलु, तत्र ऋत्विक् अपि शक्तिमान् भिन्नपदं, तत्र समानपदम् इति न इति ज्ञातुं शक्नुमः खलु तत्र रूपं.
मान् अस्ति अत्र.
हा, मान् अपि तत्र, मन्तौ अपि मन्तः इति अस्ति, किन्तु तत्र तु इक् अस्ति, ऋत्विक् ऋत्विजौ
ऋत्विजः,
अत्र रूपभेदः अस्ति खलु, तत्र सामान्यं नास्ति. अस्तु, इदानीं तत्र सः इति उपयुज्य वदतु, सः तौ, ते.
सः शक्तिमान्, तौ शक्तिमन्तौ, ते शक्तिमन्तः
इति. समीचीनं भगिनि. अस्तु, इदानीं शोभा भगिनि.
आं महोदय, तत्र सुहृद् इति अग्रिमं पदं, सुहृद् आगच्छति, सुहृदौ मिलतः, सुहृदः गच्छन्ति.
हा, इदानीं तत्र सः उपयुज्य वदतु,
सः सुहृद् आगच्छति, तौ सुहृदौ मिलतः, ते सुहृदः गच्छन्ति.
हा, इदानीं तत्र सुहृत् स्थाने अजन्तपदं स्थापितुम् इच्छामश्चेत् किम्?
अजन्तपदं स्थापितुम् इच्छामः चेत् वा
सुहृत् मित्रम् इति.
अस्तु अस्तु,
मित्रं सह मित्रं, तत्र मित्रम् आगच्छति इति. अस्तु, इदानीं तत्र सुहृद् अपि शक्तिमान् अपि ऋत्विक् तत्र सामान्यता अस्ति अथवा नास्ति? तत्र भिन्नानि
तत्र सामान्यता नास्ति महोदय. ऋत्विक् इत्यस्मिन् अनन्तरं तत्र प्रातिपदिकम् एव इति मन्ये, अनन्तरं जकारः भवति. शक्तिमान् अपि भवान् शब्दवत् अस्ति. सुहृद् इति
भिन्नम् अस्ति,
भिन्नं दकारः तिष्ठति, तत्र भिन्नम् अस्ति
दकारः. तत्र त्रिषु वचनेषु दकारः एव अन्ते अस्ति, तत्र
अन्ते अस्ति.
किन्तु तत्र शक्तिमान् मध्ये तत्र इन् इति अस्ति, तदनन्तरम् अन्तौ अन्तः इति अस्ति,
दकारः आगच्छति.
अपि वाणी तत्र ऋत्विक् मध्ये तत्र किं भवति? तत्र ककारः
नन्तरं ककारस्य जकारः भवति द्विवचने बहुवचने.
बहुवचने, अतः तत्र भेदः अस्ति इति सरलतया ज्ञातुं शक्नुमः. अतः एतानि पदानि भिन्नानि,
भिन्नानि उदाहरणानि.
भिन्नानि उदाहरणानि, अतः तत्र एतेषां ज्ञानम् अपेक्षितमस्ति. एकस्य पदस्य ज्ञानेन अन्यत् पदं न ज्ञातुं शक्नुमः इति भवति. अस्तु, समीचीनम्.
अन्ते किम् अस्ति इति
इतः अग्रे गच्छामः. तर्हि तत्र ज्ञास्यामः तत्र प्रातिपदिकं किम् अपि रूपं कथं भवति इति. एतत् प्रथमवारपरिचयः इति, अतः तत्र किमपि न वक्तुं
शक्नुमः.
किञ्चित् अग्रे गत्वा बहु किमपि वक्तुं शक्नुमः. अस्तु, अग्रे गीताञ्जलि भगिनी नमस्कारः. मधुमहोदय अग्रिमपुटे प्रथमवाक्यं प्रथम उदाहरणं पठति वा महोदय? इदानीं प्राप्तं वा?
आम् महोदय. राजा न्यायं करोति, राजानौ वार्तां कुरुतः, राजानः युध्यन्ते.
अतः तत्र किं रूपं किमस्ति? राजा इति अस्ति. एतत्तु पुल्लिङ्गपदम् अस्ति. तत्र राजा इति पश्यामश्चेत् अस्मिन् मनसि क्लेशः भवति खलु. तत्र पुल्लिङ्गपदं कथम् अस्ति? राजा तु आकारान्तपदम् इव अस्ति खलु, सीता इव अस्ति. किन्तु एतत् पदं तु पुल्लिङ्गपदमेव. राजन् इति भवति, नकारान्तपदम् अस्ति. अग्रे ज्ञास्यामः. किन्तु तत्र राजा, राजानौ, राजानः. तत्र यदि महाराज इति स्थापयामः, तत्र अजन्तपदम् अकारान्तपदं भवति, देवशब्दवत्.
महाराजः,
तत्र महाराजः, महाराजौ, महाराजाः इति भवति. किन्तु राजा इति वक्तुम् इच्छामश्चेत् क्लेशः. राजा, राजानो, राजानः इति. इदानीं तत्र राजा अपि सुहृद् अथवा शक्तिमान् अथवा ऋत्विक् तत्र सामान्यम् अस्ति वा महोदय, अथवा एतत् पदं भिन्नम् अस्ति वा? रूपं दृष्ट्वा
रूपं भिन्नम् अस्ति महोदय.
भिन्नं भिन्नं, समीचीनं. तत्र राजा इति प्रथम, एतत् सर्वं प्रथमविभक्ति एव, किन्तु एकवचने अत्र एकवचने किम् अस्ति? आकारान्तरूपम् अस्ति खलु राजा इति, दीर्घ आकारः अस्ति. किन्तु तत्र सुहृद् वा शक्तिमान् अथवा ऋत्विक् तत्र तु दीर्घ आकारः नास्ति. जानीमः एतत् भिन्नम् अस्ति, नूतनम् उदाहरणम् अस्ति इति. समीचीनं महोदय. अस्तु, अग्रे ललिता भगिनि. ललिता भगिनी, श्रूयते वा?
शक्यते वा?
न श्रूयते भगिनि.
हलो,
हा किञ्चित् उच्चैः वदतु भगिनि. न श्रूयते. हा शनैः शनैः श्रूयते भगिनि. हा अन्य कोऽपि शृणोति वा?
न महोदय.
भगिनि तत्र उच्चैः वदतु अथवा इदानीम् अस्तु भगिनि. किन्तु तत्र प्रायशः किमपि तत्र मैक् मध्ये किमपि समस्या अस्ति न वा इति न जानामि भगिनि. किन्तु तत्र बहुशनैः श्रूयते. किञ्चित् उच्चैः वक्तव्यम् अस्ति इति मन्ये.
सम्यक् न श्रूयते.
हा सम्यक् न श्रूयते भगिनि. अस्तु किञ्चित् अनन्तरं प्रयत्नं कुर्मः भगिनि. अस्तु अग्रे
आगच्छामि.
इदानीं श्रूयते भगिनि. इदानीं श्रूयते. अस्तु 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 भगिनि. इदानीं सम्यक्तया श्रूयते. अतः पठतु भगिनि.
विद्यार्थी लिखति. विद्यार्थिनौ लिखतः. विद्यार्थिनः लिखन्ति.
हा इदानीं तत्र विद्यार्थी इति अस्ति. तत्र विद्यार्थी इति रूपं तत्र
नकारान्तपदम्
अस्ति. सत्यं. किन्तु तत्र सामान्यमस्ति वा? राजा पदमिव अस्ति वा अथवा सुहृत् पदमिव अस्ति वा? शक्तिमान् पदमिव अस्ति
वा? राजा राजानौ राजानः.
हा
समानमेव.
समानं. किन्तु समानम् इति तत्र प्रथमाविभक्तिरूपं तु विद्यार्थी इति अस्ति. दीर्घ इकारः अस्ति. राजा मध्ये दीर्घ आकारः अस्ति. अस्तु अस्तु भगिनि समीचीनं. तत्र विद्यार्थी इति स्थाने अजन्तपदं स्थापितुम् इच्छामश्चेत् किं पदं सम्यक् भवति?
छात्रः
लिखति. छात्रः लिखति.
छात्रः लिखति. छात्रौ लिखतः. छात्राः लिखन्ति.
लिखन्ति इति समीचीनं भगिनि. अस्तु हा
सम्यक् श्रूयते वा?
इदानीं सम्यक् श्रूयते भगिनि. इदानीं सम्यक् श्रूयते. अस्तु अग्रे शुभदा भगिनि.
धन्यवादः.
नमस्कारः.
विद्वान् पूज्यः भवति. विद्वांसौ पूज्यौ भवतः. विद्वांसः पूज्याः भवन्ति.
हा तत्र पूज्यः इति पदस्य विभक्तिः का?
प्रथमविभक्ति एकवचनं महोदय.
हा तत्र भवति इति अकर्मकधातु इति अपि जानीमः. अत्र पूज्यः अपि विद्वान् तयोः मध्ये कः सम्बन्धः? विशेषणविशेष्यं किं? विशेषणं किम्?
विशेष्यं विद्वान्, विशेषणं पूज्यः.
हा इति समीचीनं. हा तत्र विद्वान् इति इदानीं नूतनशब्दः. तत्र विद्वान् विद्वांसौ विद्वांसः इति. अतः तदपि नूतनपदम् अस्ति. तत्र यत् यानि पदानि वयं पूर्वं दृष्टवन्तः तादृशानि एतत् पदं नास्ति.
खलु
तत्र विद्वान् विद्वांसौ विद्वांसः इति अन्ते आगच्छति इदानीं. किन्तु तत्र विद्यार्थिनः, राजानः, सुहृदः, शक्तिमन्तः, ऋत्विजः इति एव आसीत् सकारान्तपदम्.
कोऽपि साम्यं नास्ति.
साम्यं नास्ति. नास्ति. सत्यं भगिनि. अतः तत्र एतत् नूतन उदाहरणम् इति. अतः तस्य एतदपि वयं एतस्य ज्ञानमपि अपेक्षितम् अस्ति इति. वंशीसुधा भगिनी तत्र ईमेल् द्वारा प्रेषितं तत्र लिङ्क् अस्ति भगिनि. तत्र करपत्रम् इति स्मरणपत्रे. अस्तु अग्रे. अस्तु भगिनि. हा अस्तु अग्रे. गीताञ्जलि भगिनि.
विद्वान् इत्यस्य
पण्डितः इति समीचीनं भगिनि. हा पण्डितः इति. पण्डितः पूज्यः भवति. पण्डितः पूज्यौ भवतः.
पण्डिताः पूज्याः भवन्ति
भवन्ति समीचीनं भगिनि.
नमस्ते महोदय.
नमस्कार.
अग्रिमं तु युवा धावति, युवानौ धावतः, युवानः धावन्ति
इति समीचीनं. तत्र इदानीं तत्र युवा, युवानौ, युवानः, तत्र पूर्वं यत् दृष्टवन्तः तत्र कुत्रापि साम्यम् अस्ति वा? युवा इति
राजा, राजानौ, राजानः
इति इति समीचीनं भगिनि. तत्र अपि तत्र युवा इति स्थाने अजन्तपदं स्थापितुम् इच्छामश्चेत्
बालकः वा
न, युवकः,
युवकः, युवकः,
युवकः धावति,
युवकः, युवकः, युवकौ, युवकाः
इति
युवा, युवानौ, युवानः.
अतः तत्र कुत्र कुत्र क्लेशः भवति? तत्र द्विवचने प्रायशः क्लेशः न भवति. तत्र औ इति दृष्ट्वा यदि वचनम् इति कोऽपि पृच्छति चेत् प्रायशः द्विवचनम् इति वक्तुं शक्नुमः. किन्तु युवा इति दृष्ट्वा प्रायशः एकवचनम् इति वक्तुं शक्नुमः. किन्तु तत् प्रायशः लिङ्गविषये क्लेशः भवति. अपि युवानः इति दृष्ट्वा तत्र किं कस्मिन् विषये क्लेशः भवति?
युवानः प्रथमविभक्ति इति भ्रान्ति भवति.
प्रथमविभक्ति एव, प्रथमविभक्ति एव, किन्तु एकवचनम् इति.
हा हा, एकवचनमिति,
एकवचनमिति इति भाति इति भ्रमः भवति. तत्र युवानः अकारान्तपदं भवेत् तत्र युवानः इति. अतः तत्र नद्यः अपि अनेक बहुवारं जनाः चिन्तयन्ति अस्तु नद्यः, ओ एतत्तु अकारान्तपदम् अस्ति इति. अतः तादृश अत्रापि युवानः इति अस्तु. इदानीं तत्र एतत् यत् पठितवन्तः पुटद्वयं, तत्र परिचयः अस्ति हलन्तपदानां प्रथमाविभक्तिरूपाणां परिचयः. अत्र गतवर्गे कथां पठितवन्तः, अतः तत्र किं कुर्मः इत्युक्ते तत्र किञ्चित् अभ्यासं कृत्वा तत्र प्रायशः तत्र अग्रिमे पुटे यद् यः तत्र यद् अस्ति तदपि एकवारं पठित्वा पुनः कथामेव पठामः. तदनन्तरं पुनः आगत्य यानि ये अभ्यासाः अवशिष्टाः सन्ति तान् सर्वान् तदनन्तरं कुर्मः. अस्तु, तर्हि तत्र अग्रे वंशीसुधा भगिनी अग्रिमे पुटे तत्र वणिक् इति अस्ति.
आम् आम्, क्षम्यतां महोदय. अस्तु, श्रूयते किल महोदय?
श्रूयते भगिनि, श्रूयते.
अस्तु, एतानि वाक्यानि पठत, तदेव किल महोदय?
सत्यम्.
अस्तु, वणिक् वाणिज्यं, वाणिज्यं, क्षम्यतां, वणिक् वाणिज्यं करोति, वणिजौ वाणिज्यं कुरुतः, वणिजः वाणिज्यं कुर्वन्ति.
वणिक् वाणिज्यं करोति, वणिजौ वाणिज्यं कुरुतः,
वाणिज्यं
कुर्वन्ति.
महोदय, कथं जानीमः ककारान्तपदमस्ति वा नकारान्तपदमस्ति वा?
अग्रे भवति, किन्तु इदानीमेव वदामः. तत्र हलन्तपदानां प्रथमाविभक्ति बहुवचनरूपस्य अन्तिमवर्णः एव प्रातिपदिकस्य अपि इति.
अस्तु,
अतः वणिजः इति दृष्ट्वा प्रातिपदिकं जकारान्तम् इति.
ओ, तत्र एवं
एवम् अतः तत्र वणिज् जकारान्तपदं, विषजः जकारान्तपदं, सम्राजः तदपि जकारान्तपदम् इति.
तत्र विद्वांसः इति अस्ति, तर्हि विद्वांसः विद्वान् अस्ति किल तत्र प्रातिपदिकं तु?
किन्तु सकारान्त प्रातिपदिकम् अस्ति.
ओ, विद्वान्,
विद्वान् इति नकारान्त प्रातिपदिकं नास्ति. यथा भवान् शब्दस्य प्रातिपदिकं तु भवत्
भवत्. आं महोदय.
तत्र भवान्, भवन्तौ बहुवचने,
भवन्तः,
अतः तकारान्तः अस्ति अत्र.
अस्तु, किञ्चित् भ्रमः जातः महोदय, हलन्तशब्दानां विषये सकारान्त कुत्र अस्ति, नकारान्त कुत्र अस्ति.
सत्यं सत्यं, अस्तु सत्यमेव भगिनि. अतः एव तत्र हलन्तपदानां परिचयः गीतासोपने द्वितीयभागे अस्ति.
अस्तु,
किञ्चित् अग्रे गत्वा वयं चिन्तयामः. तत्र विभक्तिनिर्माणं सुलभम् अस्ति भगिनि, किन्तु तत्र केवलम् अभिज्ञानविषये, तत्र पुल्लिङ्गपदं वा स्त्रीलिङ्गपदं वा तत्र यदि ज्ञातुम् इच्छामः तत्र क्लेशः भवति. किन्तु निर्माणसमये यदि कोऽपि पदं ददाति एतस्य पदस्य विभक्तिरूपाणि वदतु इति, हलन्तपदानां विभक्तिरूपाणि सुलभानि सन्ति इति पश्यामः. अस्तु, अग्रे तत्र अग्रे उषा भगिनि.
आं महोदय. भिषक् औषधं ददाति, भिषजौ औषधं दत्तः, भिषजः औषधं ददति.
तत्र भिषक् इत्युक्ते कः?
वैद्यः.
वैद्यः औषधं ददाति, भिषक् अत्र भिषक् औषधं ददाति. एतत् पदमस्ति झकारान्तपदं, भिषज् इति. अस्तु, अग्रे तत्र अग्रे वेदा भगिनि.
आम्, सम्राट् प्रजाः पालयति, सम्राजौ प्रजाः पालयतः. सम्राट् सम्राजौ, सम्राजः प्रजाः पालयन्ति.
समीचीनं.
सम्राज् वा प्रातिपदिकं?
जकारन्त प्रातिपदिकं भवति भगिनि. समीचीनम्. इदानीं तत्र सम्राट् स्थाने महाराजः इति भवति चेत् तत्र रूपं किं भवति?
महाराजः, महाराजः, महाराजौ, महाराजाः. महाराजः प्रजाः पालयति, महाराजौ प्रजाः पालयतः, महाराजाः प्रजाः पालयन्ति.
इदानीं तत्र प्रजाः इति पदस्य विभक्ति का?
प्रजाः प्रथमा न न न बहुवचनं,
बहुवचनं. सत्यं, समीचीनं. विभक्ति
प्रजः, प्रजः, प्रजौ, प्रजाः. प्रथमा बहुवचनं,
किन्तु तत्र
प्रजा इति अस्ति,
कर्तृपदं नास्ति खलु अत्र.
कर्तृपदं नास्ति, पालयति. द्विवचनं वा?
न न, द्वितीयविभक्ति इति वक्तुम् इच्छति. सत्यं, कर्मपदमस्ति. तत्र प्रजाः इति, तत्र प्रजा इति अस्ति, आकारन्त स्त्रीलिङ्गपदं. लता, लते, लताः, लतां, लते,
लताः,
लताः.
प्रजाः
कर्मपदमेव अत्र. द्वितीयबहुवचनं. तत्र नदी शब्दस्य द्वितीयविभक्ति बहुवचनरूपं किम् अस्ति?
नदी, नद्यौ, नद्यः, नदीं, नद्यौ, नदीः.
नदीः इति. अत्र तत्र ज्ञातुं शक्नुमः, किन्तु तत्र आकारान्तस्त्रीलिङ्गे तत्र प्रथमाविभक्तिबहुवचनं द्वितीयविभक्तिबहुवचनं समानम् अस्ति इति कृत्वा तत्र क्लेशः भवति. किन्तु पालयति इति दृष्ट्वा कर्मपदम् इति ज्ञानम् अस्ति. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे लक्ष्मी भगिनि.
अस्तु महोदय. धीमान् आदरं प्राप्नोति, धीमन्तौ आदरं प्राप्नुतः, धीमन्तः आदरं प्राप्नुवन्ति.
तत्र तत्र एतत् वक्तुं शक्नुमः, तत्र शक्तिमान् इति दृष्टवन्तः पूर्वं खलु, शक्तिमान्. इदानीं तत्र धीमान् इति, तत्र धीमन्तः इति दृष्ट्वा तत्र तकारान्तप्रातिपदिकं, तत्र धीमत् इति पदस्य प्रातिपदिकं धीमान् इति प्रथमविभक्तिरूपं. तत्र शक्तिमान्, यस्मिन् शक्तिः अस्ति सः शक्तिमान्. अत्र धीमान् इति यस्मिन्
यस्मिन् धीः अस्ति,
सः धीमान्. तत्र यस्य यस्मिन् वा इति अर्थे तत्र तत्र मत् इति, तत्र मतु प्रत्ययः इति एकः अस्ति, तस्य उपयोगेन तत्र मत् धीमत् धीमान् इति भवति. अतः तत्र अग्रे अपि तत्र बुद्धिमान्, भक्तिमान् अपि अन्यत् अस्ति, तत्र धनवत्, धनवान् ज्ञानवान् श्रद्धावान् अतः तत्र एतत् एषः प्रयोगः प्रसिद्धः अस्ति अनेकवारं कर्तुं बहु बहुत्र भवति यत्किमपि अस्ति तद् कस्य अथवा कस्य तत्र बुद्धिः एतस्य बुद्धिः अस्ति अस्ति चेत् सः बुद्धिवान् अथवा अन्यत् किमपि अस्ति किन्तु तद् अस्मिन् अस्ति अथवा अस्य अस्ति इति वक्तुम् इच्छामः तत्र मतु प्रत्ययस्य प्रयोगः भवति इति कृत्वा अनेकानि एतादृशानि पदानि रचितुं शक्नुमः एतानि सर्वाणि पदानि हलन्तपदानि अतः धीमान् बुद्धिमान् भक्तिमान् धनवान् ज्ञानवान् श्रद्धावान् इति अस्तु इदानीम् अग्रे
महोदय धीमान् इति नकारान्त हलन्तपदम् अस्ति यदि अजन्तपदं
नकारान्त हलन्तपदं नास्ति
न महोदय क्षम्यतां
तकारान्त
अस्ति यदि अजन्तपदम् उपयोगं कर्तुम् इच्छामः चेत् किम् अस्ति महोदय
हा अस्तु कोऽपि वदति वा तत्र धी इत्युक्ते किम् अस्ति
धीरः
धीरः धीरः
धीरः धीरौ धीराः
हा समीचीनं समीचीनम् अस्तु अग्रे
धी इत्युक्ते बुद्धिः अपि अस्ति वा
हा तदपि प्रायशः अस्ति भगिनि हा तदपि तदपि वक्तुं शक्नुमः अतः तत्र बुद्धिः अस्ति चेत् किं वदामः तत्र धीमान् इति स्थाने अजन्तपदं
निपुणः
निपुणः अस्तु चतुरः अतः तत्र अपि अजन्तप हा तत्र अजन्तपदमपि लभ्यते हा
अपि बुद्धिमान् भवति महोदय
हा किन्तु तद् हलन्तपदमस्ति अजन्तपदम् इच्छामश्चेत् तत्र किञ्चित् परिवर्तनं किन्तु लभ्यते अस्तु अग्रे मधु महोदय
बुद्धिमान् अर्थं जानाति बुद्धिमन्तौ अर्थं जानीतः बुद्धिमन्तः अर्थं जानन्ति
जानन्ति बुद्धिमन्तः अर्थं जानन्ति तत्र हा तत्र धीमान् बुद्धिमान् तत्र सामान्यमस्ति वा तकारन्त अस्ति किन्तु तत्र रूपं दृष्ट्वा धीमान् धीमन्तौ धीमन्तः बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः सामान्यमस्ति शक्तिमान् शक्तिमन्तौ शक्तिमन्तः सामान्यमस्ति अस्तु हा अस्तु अस्तु अग्रे तत्र परिचयः अतः तत्र एतद् मनसि दृढया भवेत् अस्तु शोभाभगिनी अग्रे
आम् भक्तिमान् भक्तिमन्तौ क्षम्यतां भक्तिमान् देवम् अर्चति भक्तिमन्तौ देवम् अर्चतः भक्तिमन्तः देवम् अर्चन्ति भक्तिमत् इति तकारान्तप्रातिपदिकम्
अत्र भक्तिमान् इति स्थाने अजन्तपदं सुलभमेव
भक्तः
भक्तः भक्तः देवम् अर्चति अतः अत्र तु अन्यत् किमपि आवश्यकता नास्ति समीचीनं भगिनि अत्रापि तत्र भक्तिमान् बुद्धिमान् धीमान् सामान्यमस्ति अतः तत्र यदि एतद् जानीमः अपि तत्र भवान् भवन्तौ भवन्तः तत् तादृश अपि अस्ति अतः तत्र एतत्तु एतद् रूपं तु प्रसिद्धम् अस्ति यदि एतत् मनसि स्थापयामः बहु लाभः अस्ति भक्तिमान् भक्तिमन्तौ भक्तिमन्तः इति अस्तु अस्तु तर्हि अग्रे गीताञ्जलि भगिनी
महोदय तत्र बुद्धौ बुद्धाः अपि समीचीनं महोदय बुद्ध अपि एकं शब्दः अस्ति
हा प्रायश
बुद्धिमान् समानार्थक अपि अस्ति महोदय
अस्तु भगिनि अस्तु हा तदपि तत्र प्रायशः वक्तुं शक्नुमः बुद्धः इति अस्तु अस्तु भगिनि अस्तु इदानीम् अग्रे इदानीं बकारः इदानीं
धनवान् सोरि धनवान् गौरवं लभते धनवन्तौ गौरवं लभते
लभेते
लभेते धनवन्तः गौरवं लभन्ते
हा तत्र लभते इति अस्ति चेत् कर्मपदम् अस्ति वा
लभते आं महोदय
लभते इत्युक्ते प्राप्नोति इति अर्थे खलु धनवान् गौरवं प्राप्नोति हा तत्र धनवान् धनवन्तौ धनवन्तः तत्र सामान्यमस्ति तत्र भक्तिमान् भक्तिमन्तौ भक्तिमन्तः इति तत्र भेदः अस्ति तत्र धनवान् इत्युक्ते यस्य पुनः तत्र धनवत् इति तत्रापि तत्र यस्य अथवा यस्मिन् धनः धनमस्ति सः धनवान् इति यस्मिन् अथवा यस्य भक्तिः अस्ति सः भक्तिमान् इति किन्तु तत्र कुत्र बकारः भवति कुत्र मकारः भवति इति एतानि उदाहरणानि दृष्ट्वा एव किञ्चित् ऊहां कर्तुं शक्नुमः कोऽपि वक्तुमिच्छति वा
तत्र पूर्वपदम् इकार अस्ति चेत् तत् मकार आयाति अकार आकार अस्ति चेत् वकार आयाति
हा किन्तु किन्तु उदाहरणे दृष्ट्वा एषः नियमः समीचीनमेव किन्तु तत्र किञ्चित् भिन्नम् अस्ति अकारान्त अस्ति चेत् तत्र वकारः वत् इति आगच्छति अकार नास्ति चेत् अन्यस्वरम् अस्ति चेत् तत्र मकारः आगच्छति अत्र तु ईकारमेव दत्तमस्ति अतः तत्र सर्वत्र मकारः ईकारः अस्ति चेत् मकारः उकारः अस्ति चेत् अपि मकारः किन्तु अकारः अस्ति चेत् बकारः अतः श्रद्धावान् ज्ञानवान् धनवान् किन्तु भक्तिमान् बुद्धिमान् धीमान् शक्तिमान् इति भवति अस्तु समीचीनं
मतुप्रत्ययविधानम् एव तदेव किल
तत्र मतुप् इति अर्थः एव भगिनि तत्र मतुप् इति एकः प्रत्ययः अस्ति एतत् तादृश तत्र मतुप् प्रायशः तदेव प्रत्ययः अस्ति इति मन्ये हा किन्तु तत्र रूपभेदं भेदः भवति इति अस्तु अग्रे नरेश् महोदय
ज्ञानवान् कीर्तिं प्राप्नोति ज्ञानवन्तौ कीर्तिं प्राप्नुतः ज्ञानवन्तः कीर्तिं प्राप्नुवन्ति
अतः तत्र कीर्तिमिति कर्मपदं
कर्मपदं
तत्र ज्ञानवान् इति स्थाने तत्र अजन्तपदं नास्ति किन्तु अन्यत् पदं जानीमः तत्र ज्ञानवान् इति
ज्ञाता
ज्ञानी
ज्ञाता इति तु तत्र प्रायशः ज्ञाता इति तत्र प्रातिपदिकं किं चिन्तयति महोदय ज्ञातृ ज्ञातृ इति प्रायशः अस्ति तत्र धातृ इति धाता इति अस्ति खलु हा धाता ज्ञात्रा ज्ञात ज्ञाता इति प्रायशः ऋकारान्तपदं तत्र भवति यः हा किन्तु यः जानाति सः ज्ञाता इति हा तादृशरूपं कर्तुं शक्नुमः समीचीनं ऋकारान्तपदं समीचीनं महोदय अपि ज्ञानी अपि कर्तुं शक्नुमः किन्तु ज्ञानिन् हलन्तपदमेव अस्तु समीचीनम् अस्तु अग्रे वंशी सुधा भगिनि
आं महोदय तत्र ज्ञानिन् इति पदम् अस्ति किल महोदय ज्ञानिन्
अस्ति भगिनि अस्ति हलन्तपदम् अस्ति किन्तु अजन्तपदम् इच्छामश्चेत् किं करणीयम् इति
ओ अस्तु तत्र हा न प्रत्ययोजनेन परिवर्तनं भवति इति
सत्यं भगिनि किन्तु केवलं तत्र अभ्यासार्थं तत्र अस्तु एतत् पदं हलन्तपदम् अस्ति समानार्थकपर्यायपदम् अजन्तपदम् अस्ति वा इति तावदेव तत्र कोऽपि किमपि स्मरति वा ज्ञानवान् इति पर्याय तस्य पर्यायपदम् अजन्तपदम् तत्र अतः किन्तु ज्ञाता इति तत् तत्तु ऋकारान्तपदं हा तत्तु ऋकारान्तपदं समीचीनम् इति मन्ये
अस्तु महोदय. श्रद्धावान् ज्ञानं लभते, श्रद्धावन्तौ ज्ञानं लभेते, श्रद्धावन्तः ज्ञानं लभन्ते. लभेते लभेते लभन्ते. आत्मनेपदिरूपं महोदय.
आत्मनेपदिरूपं अत्रापि ज्ञानमिति तु कर्मपदं. तत्र श्रद्धावान् इति तत्र अन्यत् अजन्तपदं किमपि वक्तुं शक्नुम्?
श्रद्धालुः न जनम्
श्रद्धालुः दयालुः श्रद्धालुः
अन्यः प्रत्ययः अस्ति महोदय.
तत्र उकारान्तपदं गुरुपदवत् वा तद्
न जानामि, परन्तु श्रद्धालु इति पदमस्ति, परन्तु तत्र किमपि प्रत्ययः अस्ति तत्र.
किन्तु अजन्तपदं भवति चेत् समीचीनं तावदेव. अस्तु, किन्तु अत्र श्रद्धावान्, यस्मिन् श्रद्धा अथवा यस्य श्रद्धा अस्ति सः श्रद्धावान्, सः ज्ञानं प्राप्नोति इति अर्थः. अस्तु, समीचीनम्. अस्तु, शुभदा भगिनी अग्रे.
महोदय, मन्त्री भाषणं करोति, मन्त्रिणौ भाषणं कुरुतः, मन्त्रिणः भाषणं कुर्वन्ति. तत्र
वदतु भगिनि.
तदेव तदेव.
अस्तु अस्तु, तत्र मन्त्री, तत्र मन्त्री भाषणं करोति, तत्र मन्त्रिणः इति बहुवचनरूपं दृष्ट्वा तत्र मन्त्रिन् इति रूपं भवति. तत्र विद्यार्थीन् इति प्रायशः तत्र साम्यमस्ति इति मन्ये, खलु? विद्यार्थी, विद्यार्थिनौ, विद्यार्थिनः, मन्त्री, मन्त्री, विद्यार्थी इति दीर्घैकारः, तदनन्तरं विद्यार्थिनौ इति तत्र ह्रस्वैकारः, विद्यार्थिनः तत्रापि ह्रस्वैकारः, तत्र अत्रापि मन्त्री दीर्घं, ह्रस्व मन्त्रिणौ, मन्त्रिणः इति. समीचीनम्. अस्तु अग्रे किं वेदा भगिनी अग्रे.
अस्तु महोदय, अधिकारी कार्यं निर्वहति, अधिकारिणौ कार्यं निर्वहतः, अधिकारिणः कार्यं निर्वहन्ति. निर्वहति सकर्मकधातु कार्यं तत्वे कर्मपदमस्ति. अधिकारी महोदय, एकः प्रश्नमस्ति. प्रथम एकवचनरूपं यदि प्रथम एकवचनरूपं दत्तमस्ति अधिकारी, अहम् ऊहं करोति तत्पदं स्त्रीलिङ्गपदम् इति अहम् ऊहं
करोमि.
सो बहुवचनरूपं द्रष्टुमेव अहं यः
ज्ञातुं शक्नुमः सत्यं भगिनि, सत्यं सत्यम्. एकवचनं दृष्ट्वा न ज्ञातुं शक्नुमः, बहुवचन प्रथमाविभक्ति बहुवचनरूपं दृष्ट्वा सम्यक्तया वयं ज्ञातुं शक्नुमः तत्र प्रातिपदिकं हलन्तम् इति. अपि अन्तिमवर्णः कः अपि तस्य ज्ञानं भवति बहुवचनरूपं दृष्ट्वा एव.
बहु उपयोगं
करणीयमस्ति. किन्तु किन्तु बहु किमपि नास्ति तत्र. अन्य तत्र पदानां किं समुद्रः वा किं किं वदामः तत्र. अनेकानि अनेकानि पदानि सन्ति खलु, अनेकानि अनेके जनाः सन्ति लोके, अनेकानि पदानि सन्ति. अतः तत्र सर्वेषां परिचयः न अपेक्षितं जीवने, खलु?
आम् आम् सत्यम्.
तादृश एव तत्र सामान्यपदानां परिचयं यदि कुर्मः बहु लाभः अस्ति. विशेषानि पदानि सन्ति, तस्यापि किञ्चित् परिचयम् अपेक्षितम् अस्ति, किन्तु वारं वारं सामान्यपदं तत्र पदानि यानि सन्ति तेषां विभक्तिरूपाणि यदि जानीमः सम्यक्तया तत्र तत्र बहु लाभः अस्ति.
परन्तु एक अनन्तरप्रश्नः अस्ति, प्रश्नः अस्ति, बहुवचनरूपं दृष्ट्वा ऊहं करोति किं प्रातिपदिकम् अस्ति, अलन्तं वा अजन्तं वा इति. परन्तु स्त्रीलिङ्ग वा पुल्लिङ्ग वा नपुंसकलिङ्ग वा इति ऊहं न करोति.
उत्तमप्रश्नः भगिनि, उत्तमः प्रश्नः. हा सत्यं, तत्र केवलं प्रातिपदिकं किम् इति एव वक्तुं शक्नुमः. लिङ्गं किम् इति तत्र क्लेशः भवति भगिनि. तत्र एतद् एषः अंशः हलन्तपदानां विशेष अंशः अस्ति. तत्र अग्रे अपि किञ्चित् वदामि, किन्तु तत्र विभक्तिविषये लिङ्गभेदः नास्ति हलन्तपदानाम्. अजन्तपदानां तत्र स्त्रीलिङ्गपदं वा पुल्लिङ्गपदं वा किञ्चित् विभक्तिरूपाणि दृष्ट्वा किञ्चित् वक्तुं शक्नुमः, किन्तु अत्र तादृश न कर्तुं शक्नुमः. अतः तत्र
स्त्रीलिङ्गपदम् अधिकारिणी अस्ति वा?
सत्यं भगिनि, हा सत्यम्, अधिकारिणी, सत्यं भगिनि, हा. तत्र अधिकारिन् इति पुनः तत्र यस्मिन् अधिकारः अस्ति सः अधिकारी, अपि यस्याम् अधिकारः अस्ति सः अधिकारिणी. तत्र यस्याः गृहमस्ति सा गृहिणी. अतः तत्र यस्यां गृहमस्ति न, किन्तु यस्याः गृहमस्ति सा गृहिणी. यस्याः यस्याम् अधिकारः अस्ति सा अधिकारिणी. अतः तत्र हा, किन्तु अधिकारिणी तु साधारण अजन्तपदं नदीवत्. अत्र पुल्लिङ्गे तु हलन्तपदम् अस्तु. अग्रे हा लक्ष्मी भगिनी अग्रे.
अस्तु महोदय, एकः संशय. अनन्तरं विज्ञानी इति भवति, विज्ञानी पुल्लिङ्गपदं, तस्य स्त्रीलिङ्गपदं विज्ञानिनी इति भवति वा?
हा तत्र प्रायशः तद् भवेत् भगिनि, न सम्यक्तया न जानामि, द्रष्टव्यम् अस्ति. किन्तु तत्र केचन कानिचन पदानि सन्ति, तत्र यस्य नियतलिङ्गपदम् इति वदामः, तत्र तस्य पदस्य वयं जानीमः खलु, तत्र पदस्य एव लिङ्गम् अस्ति, न तु तत्र यत् तत् पदं सूचयति तस्य लिङ्गं, लिङ्गस्य विषये किमपि नास्ति खलु. तत्र पुस्तकमस्ति, तत्र पुस्तकं नपुंसकलिङ्गपदमस्ति, किन्तु यद् साक्षात् पुस्तकमस्ति तस्य लिङ्गस्य विषये किमपि तत्र वार्ता नास्ति खलु. पुस्तकम् इति तस्य पर्यायपदमस्ति पुस्तिका. अतः पुस्तिका वा पुस्तकं वा, तत्र यत् पदार्थं, यस्य पदार्थस्य वर्णनं भवति तस्य पदार्थस्य लिङ्गस्य विषयः नास्ति. किन्तु अत्र विज्ञानी इति प्रायशः तादृश प्रयोगः अपि तस्य पदस्य भवेत्, न जानामि, द्रष्टव्यम् अस्ति भगिनि. किन्तु अत्र तु विज्ञानी इति पुल्लिङ्गरूपमेव स्वीकृतम्.
तत्तु किञ्चित्
सामान्यम् अस्ति, सत्यं, हा. किन्तु एतावत् मया न श्रुतम् इति कृत्वा अहं वक्तुमिच्छामि, अस्तु प्रायशः भवति किन्तु सम्यक्तया न जानामि इति तावदेव.
किन्तु अधिकारी इति पदं तु पुंलिङ्गं पदं, किन्तु तत्तु दर्शयति न सः पुरुषः अस्ति. अधिकारिणी इति पदं स्त्रीलिङ्गम् अस्ति चेत्
सत्यं भगिनि, सत्यम्. अतः भगिनि यत् भवती वदति सत्यमेव, अधिकारिणी इति रूपम् अस्ति, किन्तु अधिकारिणी इति तत् तादृश तत् पदं मया श्रुतं, किन्तु तत्र विज्ञानिनी इति पदं मया न श्रुतम् इति कृत्वा तत्र एकवारं तत्र अहं दृष्ट्वा वक्तुम् इच्छामि तावदेव. तावदेव भगिनि, किन्तु प्रायशः भवेत् तत् तादृशं पदम्.
विद्यार्थिनी अस्ति
अपि अस्ति सत्यं भगिनि विद्यार्थी विद्यार्थिनी अधिकारी अधिकारिणी अस्ति अतः प्रायशः विज्ञानी विज्ञानिनी अपि भवेत् किन्तु यदि कोऽपि प्राप्नोति वदतु अस्तु
अस्तु विज्ञानी अध्ययनं करोति विज्ञानिनौ अध्ययनं कुरुतः विज्ञानिनः अध्ययनं कुर्वन्ति
समीचीनं भगिनि अस्तु अत्रापि तत्र विज्ञानं यस्मिन् अस्ति सः विज्ञानी इति अतः तत्र
बहुवचनरूपं विज्ञानिनः अतः नकारान्त प्रातिपदिकं
समीचीनं नकारान्त प्रातिपदिकम् इति
जानीमः
समीचीनं भगिनि अस्तु
क्षम्यतां महोदय तत्र इणि प्रत्यये अस्ति किल महोदय विद्या
सत्यं भगिनि सत्यं सत्यं
विज्ञानी अस्ति
किन्तु तत्र प्रायशः रूपम् अस्ति भगिनि किन्तु मया कदापि न श्रुतम् इति कृत्वा अस्तु एकवारं दृष्ट्वा वदामि इति तावदेव किन्तु प्रायशः अस्ति तत्र विज्ञानिनी इति यदि अस्ति चेत् बहु लाभः अस्ति तत्र अभ्यासार्थे तस्य बहु लाभः अस्ति विज्ञानिनी इति पदस्य विभक्तिरूपाणि वदतु इति अभ्यासपुस्तके ये छात्राः सन्ति कुर्वन्ति सन्ति तेषाम् अभ्यासः भवति विज्ञानिनी इति अस्तु
विज्ञानी इत्युक्ते सैण्टिस्ट् अस्ति न
सत्यं भगिनि सत्यं
वैज्ञानिकः अपि सैण्टिस्ट् एव न महोदय
वैज्ञानिक इति विज्ञानस्य विषये विषयः अस्ति तत्र
सैण्टिस्ट् नास्ति वा महोदय वैज्ञानिक अस्ति
न विज्ञानी इति वैज्ञानिकसंशोधनं करोति इति तत्र सम्बन्धः अस्ति तत्र सम्बन्धं सूचयति भगिनि तत्र विज्ञानम् इति विषयस्य सम्बन्धः अस्ति इति वैज्ञानिकः इति किन्तु सैण्टिफिक् इति अस्ति खलु तद् वैज्ञानिक इति भवति अतः तत्र विज्ञानी इत्युक्ते सैण्टिस्ट् वैज्ञानिकः इति सैण्टिफिक् अतः किञ्चित् भेदः अस्ति अस्तु अग्रे शोभा भगिनी अग्रे
आम् महोदय योगी तपः आचरति योगिनौ तपः आचरतः योगिनः तपः आचरन्ति अतः तत्र योगिनः इति अस्ति इति कृत्वा योगिन् इति प्रातिपदिकं तत्रापि योगिनी इति भवति इति
तत्र तदेव अहं वक्तुम् इष्टवान् सत्यमेव योगिनी इति तु तत्तु जानीमः तत्र रूपं बहुवारं वयं श्रुतवन्तः अतः योगिनी इति अस्ति इति जानीमः किन्तु विज्ञानिनी इति न श्रुतवान् अतः किञ्चित् मनसि क्लेशः अस्ति तावदेव समीचीनम्
तत्र अन्यत् किमपि वक्तव्यं वा
अत्र प्रायशः किमपि नास्ति तत्र तपः अपि इति तस्मिन् विषये किञ्चित् वक्तव्यमस्ति यतोहि तत्र तपः इति अस्ति तत्र तपः इति
तत्र तपः कर्मपदं भवति द्वितीयविभक्तौ अतः तत्र तपस् इत्यस्य तपः इति द्वितीया भवति इति मन्ये
सत्यं 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 भगिनि किन्तु तद् अग्रे पश्यामः तपस् इति सकारन्त नपुंसकलिङ्गपदम् अपि द्वितीयाविभक्तिरूपम् इति कृत्वा तद् स्थूलक्षरै न दत्तम् अत्र तावदेव किन्तु कर्मपदम् इति अस्तु समीचीनं
महोदय अजन्तपदं मुनिः आगच्छति वा महोदय
मुनिः कर्तुं शक्नुमः मुनिः अस्ति चेत् तत्र शुभभगिनी मुनिः अस्ति चेत् किं भवति वाक्यानि
मुनिः हरिः वत् हरिः हरिः हरौ हरयः किल
हरिः हरि हरय
क्षमता हरिः हरि
हरिः हरि हरयः
हरि दीर्घैकारः हरिः हरि हरयः मुनिः मुनी मुनयः मुनिः तपः आचरति मुनी तपः आचरतः
मुनयः तपः आचरन्ति
इति रूपं भवति. समीचीनं. हा अस्तु, अग्रे उषा भगिनी.
पुमान् पृच्छति, पुमांसौ पृच्छतः, पुमांसः पृच्छन्ति. बहुवचन अन्त्यरूपमस्ति सकारः, वर्ण अस्ति सकारः, अतः सकारान्तपदं महोदय.
समीचीनं. तत्र विद्वान् विद्वांसौ, विद्वांसः तादृश, पुमान् पुमांसौ पुमांसः इति. समीचीनम् अस्तु.
पुमान् इत्युक्ते पुत्रः,
पुमान् इत्युक्ते
प्रायश
किं भगिनि?
अजन्तपदं किम् अस्ति महोदय?
अजन्तपदं तत्र पुमान् इति. हा हा हा, प्रायश पुरुषः इति न इति मन्ये. हा
पुरुषः,
पुरुषः.
पुमान् इत्युक्ते मेन् तत्र अस्ति
पुरुषः, पुरुषः खलु.
सन्ततिः इति अस्ति महोदय.
सन्ततिः अपि भवितुम् अर्हति एव. तदपि अन्यः अर्थः अस्ति प्रायशः. पुमान्
पुमान् तु पुंस एव भवति.
अपत्यं पुमान् सन्ततिः, किन्तु
पुमान् सन्ततिः, पुमान् सन्ततिः इत्युक्ते तत्र पुत्रः इति अर्थः तत्र. किन्तु किन्तु केवलं पुमान् इति अस्ति चेत् तत्र पुरुषः इति प्रायः इति एव प्रायशः.
पुरुषः अस्ति चेत् रामः शब्दवत् पुरुषः, पुरुषौ पुरुषाः
इति सत्यम्. अस्तु अस्तु, तर्हि इदानीं तत्र किं कुर्मः? तत्र बहु किमपि अत्र अस्ति ज्ञातुं, किन्तु तत्र कथा अपि अस्ति तत्र, अतः किञ्चित् कथामपि पठित्वा अपि एकपदस्य प्रायशः तत् कुर्मः. तत्र एकपदस्य विभक्तिरूपाणि सम्यक्तया जानीमः, अतः तत्र स्वरूपमहोदयस्य करपत्रम् अस्ति तत्र, तदपि मेल् माध्यमेन तत्र ईमेल् द्वारा प्रेषितं, तत्रापि स्थापितमस्ति. हलन्तपदानां, हलन्तशब्दानां पुल्लिङ्गरूपाणि इति प्रथमे पुटे अस्ति. तत्र प्रायशः भवत् शब्दः एव तत्र ततः आरम्भं कुर्मश्चेत् समीचीनं भवति इति मन्ये. अतः अपि तत् सर्वे जानन्ति एव, अतः तद् एकवारं तत् कुर्मः, तदनन्तरं तत्र कथां पठामः. अतः तत्र अस्तु, एतत् कुर्मः. अस्तु तत्र ललिता भगिनी, ललिता भगिनी, तत्र भवान् शब्दस्य प्रथमा, द्वितीया, तृतीया रूपा विभक्तिरूपाणि वदतु भगिनि.
श्रूयते वा? श्रूयते,
श्रूयते भगिनि, श्रूयते भगिनि.
भवान्, भवन्तौ, भवन्तः, भवन्तं, भवन्तौ, भवतः, भवता, भवद्भ्यां, भवद्भिः, भवते, भवद्भ्यां, भवद्भ्यः, भवतः, भवतः, भवद्भ्योः, भवतः, भवद्भ्योः,
भवतोः, भवतोः,
भवतोः, भवतानां,
भवतां, भवतां,
भवतां, सोरि, भवतां, भवति, भवति, भवतोः, भवत्सु,
भवत्सु इति. अस्तु, धन्यवादः. आत्मन् आत्मन् इति विभक्तिरूपाणि जानन्तु इति तद् तत्र तद् अस्ति भगिनि. अस्ति भगिनि, अस्ति, प्रथमे पुटे एव अस्ति. तत्र आत्मन् इति पदस्य उपरि अस्ति. वणिक् वणिक् अस्ति, तदनन्तरं अस्ति, अस्ति, अस्ति भगिनि. समीचीनम्. अस्तु, तत्र हलन्तपदानाम् आरम्भे तत्र भवत् शब्दस्य ज्ञानम् अस्ति चेत् बहु लाभः अस्ति. यतोहि तत्र तत्र प्रथमे पुटे तत्र स्वरूपमहोदयस्य प्रथमपुटं पश्यतु, तत्र हलन्तपदानां विभक्तिरूपाणि दत्तानि सन्ति. तत्र किं किम् अस्ति? वणिज् झकारान्तपदं, तत्र वणिक् वणिजौ वणिजः इदानीं दृष्टवन्तः. तदनन्तरं भवत् शब्दः, भवान् भवन्तौ भवन्तः, भवन्तः हलन्तपदं, तकारान्त बहुवचने भवन्तः तकारः अन्ते अस्ति, एतदपि तकारान्तः. वणिजः चकारान्त प्रातिपदिकं. तदनन्तरं सुहृद्, सुहृदौ सुहृदः दकारान्तपदं, बहुवचने दकारः अस्ति. आत्मा इति तत्र आत्मा, आत्मानौ आत्मानः, नकारः अस्ति अन्ते प्रातिपदिकं, नकारान्तम् अस्ति आत्मन् इति. अपि मरुत्, मरुतौ मरुतः, तः अस्ति अन्ते, अतः तकारान्तप्रातिपदिकं मरुत्. तदनन्तरं राजन् इति, तत्र राजा राजानौ राजानः राजन् इति. अतः तत्र एतत् बहु सम्यक्तया कृतं करपत्रम् अस्ति. तत्र भवत् शब्दस्य रूपाणि पश्यामः. तत्र भवत् इति तकारान्तप्रातिपदिकं, तत्र रूपं कीदृशं, विभक्तयः याः सन्ति तत्र पश्यतु. तत्र किं भवति, तकारान्तपदं वा जकारान्तपदं वा दकारान्तपदं वा नकारान्तपदं वा किमपि भवतु, तत्र द्रष्टव्यं किम् अस्ति इत्युक्ते, तत्र प्रथमतया एकवचने एकवचने तृतीया अपि तृतीया विभक्तितः सप्तमी विभक्तिपर्यन्तं तत्र भवत् शब्दस्य रूपं किं किं भवति एकवचने, केवलम् एकवचने. भवता तृतीया, चतुर्थी मध्ये किम् अस्ति,
भवते,
भवते. पञ्चमी षष्टि भवतः,
भवतः.
सप्तमी भवति. इदानीं तत्र पश्यतु, तत्र वणिक् वणिज् इति प्रातिपदिकं, तृतीया वणिजः, चतुर्थी वणिजे, पञ्चमी वणिजः वणिजः, तदनन्तरं सप्तमी वणिजि. इदानीं तत्र सुहृत् पश्यतु, तत्र तृतीया एकवचनं किमस्ति,
सुहृदा,
चतुर्थी सुहृदे, पञ्चमी षष्टि सुहृदः, सप्तमी
सुहृदि.
इदानीं तत्र नकारन्त आत्मन् पदं, तृतीया किम् अस्ति एकवचने, आत्मना, आत्मने चतुर्थी, पञ्चमी षष्टि आत्मनः,
आत्मनः
सप्तमी आत्मनि. तादृशेव तत्र राजन् इति पदम् अस्ति, तत्रापि राज्ञा, किन्तु तत्र सन्धिकार्यमपि भवति इति कृत्वा तत्र राज्ञा इति अस्ति, किन्तु आकारान्तम् अस्ति. अपि राज्ञे, राज्ञः, राज्ञः, राज्ञी इति. अपि तद् तादृशेव मरुता, मरुते, मरुतः, मरुतः, मरुति इति एकं ज्ञातव्यम् अस्ति. अतः एतस्य ज्ञानमस्ति चेत् हलन्तपदानां तृतीया, चतुर्थी, पञ्चमी, षष्टि, सप्तमी सुलभतया कर्तुं शक्नुवन्ति भवन्तः सर्वे. केवलं भवत् शब्दस्य ज्ञानेन एतत् सर्वं कर्तुं शक्नुवन्ति. तदनन्तरं द्विवचने किं भवति, तत्र द्विवचने जानीमः, तत्र प्रथमाविभक्ति द्वितीयाविभक्ति मास्तु, किन्तु तदनन्तरं किं भवति, तत्र रामाभ्यां 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 रामयोः रामयोः, तादृशेव तत्र भवद्भ्यां 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 भवतोः भवतोः, आत्मभ्याम् 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 आत्मनोः आत्मनोः इति. अतः तत्र तादृश रूपमस्ति, अतः द्विवचनमपि किञ्चित् सुलभमेव अस्ति. केवलं तत्र रूपद्वयस्य आवश्यकता अस्ति, मनसि स्थापनीयमस्ति, रूपद्वयं स्थापनीयमस्ति द्विवचने. बहुवचनम् अनन्तरं पश्यामः, किन्तु एकवचनं द्विवचनं तत्र किञ्चित् कीदृशम् अस्ति इति, तत्र रूपं कीदृशम् इति मनसि किञ्चित् स्थापितुं शक्नुमः इदानीमेव. अस्तु, तर्हि तत्र कोऽपि प्रश्नः अस्ति वा अस्मिन् विषये?
महोदय भवत्शब्दस्य सम्बोधनरूपं किं न दत्तं तत्र
स्वरूप महोदय न दत्तवान् तावदेव किन्तु तत्र प्रायशः तदपि अस्ति किन्तु न स्थापितवान् तावदेव भगिनि अस्तु तर्हि अतः अग्रे गच्छामः तत्र कथां पठामः किञ्चित् समयः अस्ति तत्र पूर्णतया न पठामः किन्तु किञ्चित् अग्रे गच्छामः तर्हि तत्र कथा अस्मिन्नेव करपत्रे तत्र अन्तिमे पुटे अस्ति तत्र वणिचिति यत्र पठितवन्तः तत्र एव अन्ते अस्ति आपत्सु मित्रं जानीयात् अस्तु तर्हि तत्र गतवर्गे तत्र कथां पठितवन्तः किन्तु तत्र पुनः पठामः अपि तत्र इदानीं तत्र रूपस्य ज्ञानमपि इदानीम् अस्ति अतः सुलभमेव भवति अस्तु वंशीश्रुतभगिनी आरम्भं करोति वा
आं महोदय आपत्सु मित्रं जानीयात् तत्र जानीयात् इति विधिर्लिङ्ग् इति चिन्तयामि अस्तु अस्तु द्वापरयुगस्य कथा अस्ति भगवान् श्रीकृष्णः द्वारकायाः राजा आसीत् भगवान् इति भगवत् शब्दः प्रातिपदिकम् इति अहं चिन्तयामि
इदानीं तत्र भगवान् इति अस्ति भगवान् इति द्विवचने बहुवचने किं किं भवति
भगवान् भगवन्तौ भगवन्तः
भवान् भवन्तौ भवन्तः
भगवान् भगवन्तौ भगवन्तः
समीचीनं भगिनि
अस्तु द्वारकायाः राजा आसीत् तत्र राजा अपि राजन् शब्दवत् अस्ति राजन् राजानौ राजानः तस्य अनेके सहपाठिनः सुहृदः च आसन् तस्य अनेके सहपाठिन् इति प्रातिपदिकमस्ति सहपाठिनः इति बहुवचनरूपमस्ति सहपाठिन् सहपाठिनौ सहपाठिनः
योगिन् इति प्रातिपदिकं किन्तु प्रथमविभक्तिरूपं योगिन्
ओ अस्तु
प्रथमविभक्तिरूपं योगी क्षम्यतां प्रथमाविभक्तिरूपं योगी
तर्हि तत्र सहपाठी भवति वा महोदय
एकः सहपाठी
सहपाठिनौ
द्वौ सहपाठिनौ अनेके अनेकाः अथवा अनेके सहपाठिनः
अस्तु सुहृदः तत्र सुहृत् सुहृत् प्रातिपदिकम् अस्ति तत्र सुहृत् न भवति
सुहृदेव सुहृत् सुहृदौ सुहृदः
सुहृदः अस्तु बहुवचनरूपमे अस्ति सहपाठिनः सुहृदः तत्र विशेषणविशेष्यभावः अस्ति अस्तु ते सर्वे मिलित्वा वने गाः चारयन्ति स्म तत्र किमपि नास्ति तेषु सुहृत्सु कृष्णः सुदामा च अन्तरङ्गौ सुहृदौ आस्ताम् तेषु सुहृत्सु तत्र षष्टिवचन बहुवचनरूपमस्ति महोदय सुहृत् शब्दस्य बहुवचनरूपमस्ति
क्षम्यतां
सप्तमी कृष्णः सुदामा च अन्तरङ्गौ सुहृदौ तत्र सुहृद् प्रथमाविभक्तौ द्विवचनरूपम् अस्ति
तत्र सुहृत्सु इति अस्ति तत्र भवत् शब्दस्य सप्तमी विभक्तिरूपतोः
भवत्सु
अत्रापि सुहृत् मध्ये अपि सामान्यमेव अस्ति तत्र सुहृदि सुहृदोः सुहृत्सु भवति भवतोः भवत्सु सुहृदि सुहृदोः सुहृत्सु
ह्रस्वैकारः भवति सुहृत्सु सुदामा कृष्णस्य अतीव प्रियः आसीत् तस्मिन् कृष्णस्य भूयां स्नेहः आसीत् भूयान् स्नेहः तत्र भूयान् इति कीदृशपदं महोदय
भूयान्
अस्तु तर्हि तस्य रूपमपि भवति वा
पुमान् पुमांसौ
पुमांसः अस्तु भूयान् भूयांसौ भूयांसः सम्यक् वा महोदय सकारान्तपदमस्ति
सकारान्तपदम्
प्रौढे वयसि मधुराः विहाय मधुरां क्षम्यता प्रौढे वयसि मधुरां विहाय कृष्णः द्वारकापुरीं गतवान् तत्र सः राजा अभवत् राजा इति राजन् शब्दवत् समानरूपं राजन् राजा राजानौ राजानः एवं तस्य बाल्यसुहृतभ्यः क्षम्यता सुहृद्भ्यः साक्षात् सम्पर्कः विच्छिन्नः अभवत् बाल्यसुहृद्भ्यः तत्र पञ्चमी अस्ति वा सुहृद्भ्यः
विच्छिन्नः सुहृद्भ्यः विच्छिन्नः
अस्तु बाल्यसुहृद्भ्यः साक्षात् सम्पर्कः विच्छिन्नः अभवत् तदेव अस्ति महोदय पञ्चमीरूपमस्ति अस्तु पञ्चमी बहुवचनरूपमस्ति महोदय
तत्र साक्षात् सम्पर्कः अथवा तस्य सम्पर्कः विच्छिन्नः
तस्मात् सम्पर्कः किल महोदय
किन्तु तस्मात् एव अस्ति तस्मात् सम्पर्कः विच्छिन्नः तस्मात् सम्पर्कः विच्छिन्नः
अतः पञ्चमी बहुवचनरूपं
पञ्चमी बहुवचनं समीचीनं हा अस्तु तत्र प्रायशः तत्र प्रौढे भयसि इति तत्रापि किञ्चित् वक्तव्यमस्ति तत्र भयसि अग्रे पश्यामः तत्र भयः इति भवति भयस् इति सकारान्तपदं मनस् इव नपुंसकलिङ्गपदम् अस्ति अतः तत्र भयसि इति सप्तमी भवति तत्र प्रौढे भयसि अतः तत्र मथुरां विहाय विहाय इत्युक्ते
विहाय इत्युक्ते तत् विना महोदय विहाय
त्यक्त्वा त्यक्त्वा मथुरां त्यक्त्वा कृष्णः द्वारकापुरीं गतवान् सः द्वारकापुरीं गतवान् तत्र सः राजा अभवत् राजा राजानो राजानः अग्रे तत्र एवम् इत्युक्ते सः राजा द्वारकापुरीं सः राजा अस्ति अतः तत्र तस्य बाल्यसुहृद् तत्र बाल्यसुहृदः ते कुत्र सन्ति
ते तत्र गुरुकुले सन्ति
गुरुकुले सन्ति अथवा अन्यत्र सन्ति किन्तु तत्र द्वारका द्वारकानगरे अथवा द्वारकापुर्यां तु ते सुहृद्भ्यः न सन्ति अतः तत्र साक्षात् सम्पर्कः विच्छिन्नः इति तत्र अन्वयः कुत्र अस्ति
विच्छिन्नः महोदय
अतः तत्र कः छिन्नः विच्छिन्नः तत्र
सम्पर्कः चिह्नः
हा सम्पर्कः विच्छिन्नः विशेषणं कीदृशः सम्पर्कः विच्छिन्नः सम्पर्कः विच्छिन्नः सम्पर्कः विच्छिन्नः अभवत् इदानीं सम्पर्कः नास्ति पूर्वम् आसीत् इदानीं सम्पर्कः नास्ति अस्तु समीचीनं भगिनि धन्यवादः
महोदय क्षम्यतां तत्र वयसि इति मनस् शब्द अस्ति वा
सत्यं भगिनि सत्यं हा हा हा
अस्तु
भूयान् एकवार पुनः वदतु कृपया भूयान् प्रातिपदिकं किम्
अहं चिन्तयामि भगिनि तत्र पुमान् वत् अथवा विद्वान् वत् अस्ति इति भगिनि भूयान् सकारान्तपदं हा विद्वान् विद्वांसौ विद्वांसः भूयान् भूयांसौ भूयांसः सकारान्तपदम्
महोदय तत्र मम एकः भ्रमः जातः तत्र कथं जानीमि वयसि इति नपुंसकलिङ्गमस्ति महोदय
इदानीं न जानीमः भगिनि केवलम् उक्तवान् अग्रे पश्यामः अग्रे पश्यामः अतः किन्तु अत्र तु अस्माकं विषयः अस्ति हलन्तपदपदानां परिचयः किन्तु केवलं पुल्लिङ्गपदानां परिचयः तत्र गीतासोपाने तत्र पुल्लिङ्गं तदनन्तरं स्त्रीलिङ्गं नपुंसकलिङ्गं मिलित्वा दत्तम् अस्ति इति कृत्वा एतत् मया स्वीकृतम् अस्ति तत्र किञ्चित् केवलं पुल्लिङ्गरूपं, तदनन्तरं स्त्रीलिङ्गं, तदनन्तरं नपुंसकलिङ्गम् इति.
ओ अस्तु महोदय.
अतः तत्र वयः इति आगच्छति अग्रे, मनः इव मनस् सकारान्तपदं भवति.
अस्मिन् अस्मिन् कथायां तु सर्वे सर्वाणि पदानि पुल्लिङ्ग.
हा, यत् स्थूलक्षरे अस्ति तत् तानि सर्वाणि पदानि पुल्लिङ्गपदानि इति.
अस्तु महोदय.
अतः सुलभं भवति इति. अस्तु अग्रे मधु महोदय अग्रे पठति वा किञ्चित्.
आरम्भात् एव सुदामा निर्धनः आसीत्. सः न केवलं कृष्णस्य सहृद् आसीत्, किन्तु तस्य भक्तः अपि आसीत्.
सुदामा इति पदस्य रूपम् इदानीं किञ्चित् जानाति वा महोदय? सुहृत् तु जानाति, सुहृत् सुहृदौ सुहृदः तत्र राजा राजानौ राजानः
राजा राजानौ राजानः तत्र नकारन्तः
सुदामान्
सुदामा सुदामन् सुदामन् सुदामनः
सुदामानौ
सुदामानौ सुदामानः
हा सुदामानः इति भवति. समीचीनं महोदय. सुदामन्
अश्वत्थामा अपि समानेव. अश्वत्थामा
हा सत्यं भगिनि, अश्वत्थामन् इति
अश्वत्थामन्
नकारन्तशब्दः किल महोदय?
सत्यं महोदय, नकारन्तपदम् अस्ति सत्यम्. अतः तत्र स्त्रीलिङ्गपदं नास्ति, पुल्लिङ्गपदमेव नकारान्तपदम् अस्ति.
सुहृत् अत्र नकारान्त
सुहृत् सुहृदः. अस्तु तत्र महोदय तत्र भजति तत्र पूर्णपरिच्छेदं पठतु महोदय एकवारं पठतु.
दारिद्र्यवशात् यद्यपि सुदामा महति कष्टे आसीत्, तथापि प्रतिकाराय किञ्चित् न अकरोत्. सः केवलं कृष्णं भजति स्म. तद् दृष्ट्वा तस्य पत्नी तम् उक्तवती, आर्यपुत्र भवतः सुहृत् इदानीं द्वारकायाः राजा वर्तते, भवान् तं मिलित्वा किमर्थं स्वकष्टविषये न सूचयति? सः भवतः सहायम् अवश्यमेव आचरिष्यति.
सः भवतः साहाय्यम् अवश्यमेव आचरिष्यति. समीचीनं महोदय. अस्तु इदानीं तत्र शुभदा भगिनी किञ्चित् तत्र वाक्यत्रयं स्वीकृत्य किञ्चित् वदति वा भगिनि? आरम्भात् एव इति.
आरम्भात् एव सुदामा निर्धनः आसीत्.
सुदामा निर्धनः कः सम्बन्धः तत्र?
सुदामा निर्धनः, निर्धनः विशेषणं, सुदामा इति विशेष्यं.
समीचीनं भगिनि, पुल्लिङ्गपदम्. इदानीं तत्र बहुवचने किं भवति?
आरम्भात् एव सुदा
केवलं तत्र सुदामा निर्धनः इति स्वीकृत्य तद् एकवचने अस्ति. बहुवचने किं भवति?
राजा राजानौ राजानः सुदामानः निर्धनाः
इति तावदेव. निर्धनाः इति समीचीनं. अतः तत्र सुदामा निर्धनः, तत्र तस्य पार्श्वे धनं नासीत् आरम्भतः. अग्रे
सः न केवलं कृष्णस्य सुहृत् आसीत् किन्तु तस्य भक्तः अपि आसीत्. सः सुदामा कृष्णस्य मित्रम् आसीत्. सुहृत् इति दकारान्तपुल्लिङ्गशब्दस्य एकवचन प्रथमा एकवचनम् अपि च किन्तु तस्य भक्तः अपि आसीत् न तु केवलं सुहृदं परन्तु भक्तमपि आसीत् दारिद्र्यवशात् यद्यपि सुदामा महती कष्टे आसीत् तथापि तत्प्रतिकाराय किञ्चित् न अकरोत्. दारिद्र्यवशात् सः दरिद्रः आसीत् तेन कारणेन यद्यपि सः बहु कष्टे महती कष्टे आसीत् बहु कष्टम् अनुभवन् आसीत् तथापि तत् प्रतिकाराय तस्य प्रतिकारः सः न कृतवान् किञ्चिदपि प्रतिकारः
कष्टस्य निवारणार्थं तस्य निवारणार्थं सः किमपि न कृतवान् किमपि प्रयत्नं न कृतवान् समीचीनं भगिनि. अतः तत्र
तत् प्रतीकाराय इन् द सेन्स् प्रतीकाराय
तत् गच्छतु इति तत्र कष्टम् अपगच्छेत् इति तत्र कष्टः अस्ति किन्तु कष्टं ततः गच्छतु इति तत् तादृशं करणीयं
प्रतीकाराय. ओके
प्रतीकाराय तस्य गमनाय
तत्र अन्यत् एकः शब्दः अस्ति किल प्रतिकार इति टी ह्रस्व अस्ति तत्र प्रतिकारः
उपकारः इति उपकारः प्रतिकारः तादृशार्थे प्रायशः अस्ति भगिनि. तत्र तस्य अपगमनं भवतु अत्र मास्तु अन्यत्र गच्छतु कष्टः इदानीं मास्तु इति तस्य निवारणाय
किञ्चिदपि प्रतिकारं न कृतवान्
प्रयत्नं न कृतवान् अग्रे
सः केवलं कृष्णं भजति स्म. अत्र
कृष्णस्य भजनं
सदैव कृतवान्
कुर्वन् आसीत्
सः कृष्णस्य भजनं सदैव कुर्वन् आसीत्. तद् दृष्ट्वा तस्य पत्नी तम् उक्तवती आर्यपुत्र भवतः सुहृत् इदानीं द्वारकायाः राजा वर्तते. सा उक्तवती सा तस्य पतिं तस्याः पतिम् उक्तवती आर्यपुत्र भवतः सुहृत् भवतः मित्रं कृष्णः इदानीं द्वारकानगर्याः राजा अस्ति
वर्तते
इति आत्मनेपदी अस्ति परस्नेपदी भवति. सो भवतः सुहृत् कृष्णः इदानीं द्वारकारयाः राजा अस्ति. भवान् तं मिलित्वा किमर्थं स्वकष्टविषये न सूचयति? सा तस्याः पतिं सूचयति यत् सः कृष्णं मिलित्वा गच्छेत् अपि च तं तयोः दारिद्र्यम् अपि दारिद्र्यविषये किमपि
किमपि किमर्थं सः तादृशं न करोति तत्र गत्वा दारिद्र्यविषये किञ्चित् सूचनां न ददाति अथवा किमर्थं न सूचयति इति तत्र मेलितुम् अथवा कृष्णस्य मेलनं कर्तुम् अथवा मेलनार्थं गत्वा अथवा कृत्वा
सः भवतः साहाय्यम् अवश्यमेव आचरिष्यति. सः कृष्णः भवतः साहाय्यं भवतः किमपि धनं दातुं शक्नोति सः किमपि दारिद्र्यनिवारणाय
स्वयम् अवश्यं सः करोति तत्र आचरिष्यति इत्युक्ते तस्य सः किं करोति तत्र आचारः तस्य आचारः कीदृशः इति वयं वक्तुं शक्नुमः तत्र सः स्नेहरूपेण एव तस्य आचारः भवति अतः तत्र साहाय्यं करोति इति तस्मिन् विषये वयं विश्वासं कर्तुं शक्नुमः विश्वसितुं शक्नुमः इति समीचीनं भगिनि अस्तु अग्रे लक्ष्मी भगिनी अग्रे किञ्चित् पठति वा
अस्तु महोदय आदौ सुदामा तदर्थम् उद्यतः न अभवत्
आदौ इत्युक्ते आदौ तत्र यथा पत्नी एतत् उक्तवती तस्मिन्नेव समये सः न तस्मिन् उत्साहः नासीत् किन्तु अनन्तरं परिवर्तनं भवति इति
आसक्तिः न प्रकटितवान्
आरम्भे
स्वमतं सम्पोषयन् सः पत्नीं प्रबोधितवान्
तत्र सम्पोषयन् इति पठन् शत्रन्तरूपं सम्पोषयति सम्पोषयन् किं सम्पोषयन् स्वमतम् स्वस्य अभिप्रायस्य सम्पोषणम् इत्युक्ते स्वस्य अभिप्रायस्य वर्धनं कर्तुं तस्य वर्धनम् एषः अभिप्रायः मम अभिप्रायः समीचीनः इति प्रदर्शयितुं
पत्नीं प्रति उक्तवान्
किम् उक्तवान्
स्वार्थाय सुहृदे कष्टं न दातव्यं किल अपरं च किं त्वं न जानासि यत् कृष्णः इदानीं महान् राजा वर्तते
इदानीं तत्र स्वार्थाय सुहृदे कष्टं न दातव्यं किल तत्र
स्वस्य कार्याय अन्या
सुहृदे कष्टं सुहृदे इति विभक्ति का भवत् शब्दं दृष्ट्वा सुहृदे कष्टं न दातव्यं दातव्यमपि अस्ति अतः चतुर्थी इति जानीमः कस्मै कष्टं न दातव्यं सुहृदे कष्टं न दातव्यं किमर्थं न दातव्यं
स्वार्थाय
तत्र अस्माकं तत्र किञ्चित् आवश्यकता अस्ति इति कृत्वा तत्र सुहृदे कष्टं न दातव्यं किल इति सः वदति अग्रे
अपरं च किं त्वां न जानासि यत् कृष्णः इदानीं महान् राजा वर्तते महान् राजा महत् इति शब्दस्
तकारान्तपदं महान् इदानीं महान् राजा इति तत्र द्विवचने रूपं किम् अस्ति राजापदस्य द्विवचनरूपं किं महान्तौ महान्तः महान् समीचीनं बहुवचने
राजा राजानौ राजानः महान् महान्तौ
महान्तः
महान्तः
अतः महान्तः राजानः
महान्तः राजानः
समीचीनं सः महान् राजा वर्तते कृष्णः इदानीं तत्र केवलं कष्टं न दातव्यं सुहृदे कष्टं न दातव्यं सः एकः अंशः एकः एव अंशः न अन्यः अंशः अपि अस्ति इदानीं तम् अंशमपि इदानीं सः वदति अग्रे सः किं वदति
सुहृदः महान् राजा
अस्ति अतः
स्वस्य कष्टं
न अग्रे तत्र राज्यकार्येषु
राजकार्येषु व्यग्रतया कदाचित् सः अस्मान् विस्मृतवान् स्यात्
हा व्यग्रतया सः तत्र अनेके अनेकानि कार्याणि सन्ति इति हा अस्ति अतः तत्र तस्य मनसि
अस्माकं विस्मृतवान् स्यात्
हा इति सः इदानीं वदति अतः तत्र यदि तत्र यदि कृष्णः न स्मरति अतः तत्र गत्वा कः लाभः इति सः वक्तुम् इच्छति हा अग्रे अतः एव
एतादृश्यां स्थितौ केवलं स्वार्थाय तेन सह मम मेलनम् उचितं न भाति इति
हा अतः तत्र सुहृदे कष्टं न दातव्यम् अपि एषः सुहृत् तु महाराजा अस्ति तत्र तस्य अनेकानि कार्याणि सन्ति इति कृत्वा अतः तत्र यदि अहं गच्छामि तत्र कोऽपि लाभः न भवति अतः किमर्थं मया गन्तव्यम् इति सः वदति अस्तु तर्हि तत्र स्थगयामः समयः अपि जातः अग्रिमे वर्गे तत्र पुनः किञ्चित् कथां समापयामः तदनन्तरम् अग्रे तत्र पुल्लिङ्गपदानां हलन्तपदानाम् अभ्यासं कुर्मः परिचयं प्राप्नुमः अस्तु तर्हि तत्र
महोदय अद्य कुचेल दिनम् अस्ति आचरणीयं कुचेल दिनम् अस्ति
अद्य वा भगिनि
अद्य इत्युक्ते
भारतदेशे वा
भारतदेशे बुधवासरे
कुचेल देश दिनम् एव अस्ति माघमासे प्रथम
अमावास्यवासरे
अस्तु भगिनि बहु समीचीनमस्ति अहं न ज्ञातवान् किन्तु तत्र पश्यतु वयं समीचीना कथा या अस्ति तां कथामेव पठामः अस्तु धन्यवादः भगिनि
माघ वा मार्गशीर्ष वा
मार्गशीर्षः
समीचीनम् अस्तु अस्तु तर्हि अतः तत्र ये अमेरिकादेशे सन्ति ते सर्वे तत्र श्वः पुनः एकवारं कथं पठन्तु
कुचेलस्य स्मरणं
कुचेलोपाख्यानम् इति नारायणीयम्
अवगतवती किमस्ति
कुचेलोपाख्यानम् इति नारायणीयम् इति ग्रन्थः अस्ति न तदर्थं
57th
अध्यायं पठनीयमस्ति
बहु समीचीनमस्ति भगिनि अस्तु समीचीनम् अस्तु अतः तत्र सर्वे पठन्तु श्वः अस्तु तर्हि तत्र मधुमहोदय तत्र अन्ते शान्तिमन्त्रं वदति वा महोदय
सर्वे भवन्तु वदामि ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय
धन्यवादः अग्रिमे वर्गे मिलामः गीताञ्जलि भगिनी प्रेषितवती तत्र विज्ञानिनी इति लभ्यते इति अतः समीचीनम्
अस्ति
किन्तु अस्ति तस्य प्रयोगः तस्य पदस्य प्रयोगः अस्ति किन्तु
सा अपि विज्ञानिनी अस्ति
सत्यम् अस्तु अस्तु
धन्यवादः
नमस्कारः
धन्यवादः